सूर्यस्पृहणीय चंद्रमा सदावगाह क्षतवारी संचय दिनांतरं योभ्युपशांतमन्मथो निदाघकालो यमुपागत प्रिये।
अयि प्रिय श्रोतारः, महाकविना कालिदासेन विरचितेन ऋतुसंहार नामाभिधीयकेन ग्रन्थेन अपि च निदाघकाले अस्मिन् शीतल वायु सादृशेन सह संस्कृत साप्ताहिकी कार्यक्रमे भवतां समेषां कर्ण प्रिय सुधारकाणां श्रोतृजनानां स्वागताभिभाषणेन सह उपस्थितास्मि कार्यक्रमस्य उद्घोषिका निधि तिवारी। भवद्भ्यः सर्वेभ्यः मम नमस्काराः। अस्तु श्रोतृजनाः, सुभाषितानि संस्कृत काव्यानाम् एका साहित्यिक शैली वर्तते। सुभाषितान्तर्गतं सन्देशाः, तथ्यानि, सत्यवचनानि इत्यादीनि समाविष्टानि भवन्ति। सम्यक् प्रकारेण वाक्पटुतया कथितं सुभाषितम् उचितं निगद्यते, तावत् सार्थेन उचितप्रकारेण कथ्यते अस्माकं प्रथमः सुभाषितानुभागः, येन सम्पाद्यते पुनीत त्रिपाठिना।
स्वप्नेऽपि मास्तु कस्यापि दुर्जनस्य समागमः, यस्मात् कुजस्य संसर्गात् वैरं बुधसुधाभृदोः। अर्थात् लोगों को सपने में भी दुर्जन व्यक्तियों के साथ मित्रता या सहयोग नहीं करना चाहिए। देखो ना, मंगल ग्रह के संसर्ग में रहने पर चंद्रमा और बुध ग्रहों के बीच में भी बैर हो जाता है।
आई श्रोता रह साप्ताहिकी वार्ता विभागे भवन्तः सर्वे शृण्वन्ति जवीयगत्या देश विदेशयोः घटिताः वार्ताः सुषमा शर्मणा सहयोगिन्या। अस्तु, चलामस्तावत् एनं प्रभागम् अभिलक्ष्य।
सीमा सुरक्षा बलेन नवदिल्ल्यां बीएसएफ संस्थायां कलाशिल्प प्रदर्शनी एका समायोजिता। विगत चतुर्विंशति होरासु कोविड महामार्याः षष्टिः न्यून संक्रमण प्रकरणानि अधिगतानि जातानि। एषा संख्या पञ्चसप्तति दिवसेभ्यः सर्वाधिका न्यूनतमा वर्तते। केन्द्रेण षड्विंशति कोट्यधिक औषध टीकाकरणं समुपलब्धम्। पश्चिम बंगाल प्रदेशीय प्रशासनेन प्रतिबंधम शैथिल्यं प्रदत्तम्। बिहार प्रदेशे सप्ताहात्मकं यावत् सर्वविध प्रतिबंधम यथावत् संधारितम्। रबी शस्य ऋतु कालावधौ सार्ध चतुश्शताधिक लक्ष मीट्रिक टनात्मकं गोधूम उत्पादनं विवर्धितं जातम्। उत्तर प्रदेशे तत्रत्य प्रशासनेन अष्टादश वर्षे अल्प वर्षीय बालकेभ्यः पञ्चाशत लक्ष औषध पेटिकाः वितरिताः। छत्तीसगढ़ राज्ये सुरक्षा बलैः साकं संजाते संघर्षे एकस्मिन् माओवादी जनो एकः मृतो संजातः।
सुष्ठु वार्ताः निगदिताः भवत्या, धन्यवादाः एतदर्थम्। मे मित्राणि, हीयते हि मतिस्तात् हीनैश्च समागतात् समैश्च समतामेति विशिष्टैश्च विशिष्टतम्। पद्यस्यास्य चतुर्थांशः अतिविशिष्टजनानां संगतिः सूच्यते। विशिष्ट सज्जनैः सह बुद्धिः पवित्रा भवति। बुद्धिविकासाय जिज्ञासा समाधानाय ज्ञानविज्ञान प्रभागस्य इत्याख्यस्य अस्मिन् अंशे अत्र समुपस्थिताः सन्ति अद्य दिल्ली विश्वविद्यालयस्य संस्कृतविभागस्य प्रोफेसर धनंजय कुमार आचार्य महोदयाः। एतैः विद्वद्भिः सह सम्भाषणार्थम् उपस्थितः अस्ति अस्माकं सहयोगी युवराज भट्टराई इत्येषः।
नमो नमः। अनेक शास्त्र व्युत्पन्नस्य नैक संस्कृत प्रसार कार्यक्रमाणां कर्णधारस्य विशेषतश्च पाणिनीय व्याकरण शास्त्र अध्यापन निरतस्य अद्यतन संस्कृत साप्ताहिकी इति कार्यक्रमे सम्भाषणार्थम् उपस्थितस्य अतिथेः दिल्ली विश्वविद्यालयस्य संस्कृत विभागस्य प्रोफेसर धनंजय कुमार आचार्य महोदयस्य स्वागतीकरणाय अवसरं प्राप्य अयम् युवराजः भट्टराई आत्मानं परम धन्यं मनुते। मान्य महोदय, संस्कृत साप्ताहिकी कार्यक्रमे हार्दम् अभिनन्दनमस्ति।
धन्यवादाः। हृदयेन प्रसन्नोऽस्मि। स्वस्ति भवते आकाशवाण्यै च।
मान्यमहोदय, भवान् खलु वैयाकरणः? वैयाकरणस्तु भाषाविज्ञानी भवति। तर्हि सर्वादौ अहं ज्ञातुमिच्छामि यत् संस्कृतवाङ्मये व्याकरणशास्त्रस्य किमस्ति स्थानम्, अथ च व्याकरणशास्त्रस्य अध्ययनं छात्रेभ्यः किमर्थम् अस्ति अपरिवार्यम्। कृपया प्रोच्यताम्।
अत्यन्तं शोभनः प्रश्नः उत्थापितः भवता। वस्तुतः विशेषतः वाङ्मयमात्रे एव व्याकरणशास्त्रस्य महत्वं सर्वत्रैव प्रसिद्धं विद्यते।
एवं
विशेषतः संस्कृतवाङ्मये तु एतत् नितरां वर्तते। कस्मादिति जिज्ञासायां वक्तुं शक्यते यत् संस्कृतवाङ्मये सर्वत्र एव अस्य महत्वं बहुधा प्रतिपादितं विद्यते।
एवं
वयं श्रुतवन्तः प्रथमे हि विद्वांसो वैयाकरणाः, अथ च यद्यपि बहुनाधीशे तथापि पठपुत्र व्याकरणम् इत्यादयः सुप्रसिद्धाः उक्तयः शास्त्रस्यास्य महिमानमेव समुद्घोषयन्ति। व्याकरणस्य स्थानं कथमस्ति चेत् इति यदि विचारयामः अयमेव प्रश्नो विद्यते। यतो हि वयम् अवधानपूर्वकं पश्यामः भाषा काचित् भाषा बोधम् अनुसृत्य आकारवती भवति।
एवं
बोधश्च वस्तुसत्ताम् अनुसृत्य आकारितो भवति। अतः वस्तुसत्ताम् याथार्थ्यतः यदि वयम् अवगन्तुमिच्छामः तर्हि तस्य एकमात्रं साधनं भाषैव भवितुम् अर्हति। यतो हि भाषा विश्वं प्रस्तौति। लैंग्वेज रिप्रेजेंट्स द वर्ल्ड। तथ्यमिदं अनेन मंत्रेणापि सुव्यक्ति भवति। वागेव विश्वा भुवनानि जज्ञे इत्यादि। अर्थात यदि वयम सकलमपि संसारं समग्रतया सम्यक्तया अवगन्तुम् इच्छामश्चेत् अस्माभिः निश्चयेन भाषा अवबोद्धव्या भवेदेव। पुनश्च भाषाबोधः व्याकरणस्य साहाय्येन सरलतया सम्यक्तया च भवति इत्यत्र नास्ति काचित् विप्रतिपत्तिः। अर्थात् व्याकरणं नाम भाषाज्ञानस्य अन्यतमोपायः।
सत्यं सत्यं प्रतिपादितं भवता। अहम् अतोऽपि ज्ञातुमिच्छामि यत् संस्कृतसाहित्यं तु वैदिककालादेव अनारतं प्रवहति। अहं बोद्धुमिच्छामि यत् किं व्याकरणशास्त्रस्य प्रवाह अपि वैदिककालादेव चलति? यतो हि क्वचित् क्वचित् वैदिक व्याकरणस्य चर्चा अपि अस्माभिः विद्वद्गोष्ठीषु श्रूयते। अस्मिन् विषये किमस्ति तथ्यम्, अथ च भवतः अभिमतम्?
बहु शोभनः प्रश्नः अयमपि सुष्ठु प्रश्नः। वस्तुतः यदि वयं महाभाष्यकारस्य वचनं स्मरामः तु ते कथयन्ति आदौ अथ शब्दानुशासनम्। पुनः प्रश्नः आयाति तत्रैव केषां शब्दानाम्।
एवम्
आचार्याः स्वयं उत्तरं यच्छन्तः कथयन्ति केषां शब्दानां, लौकिकानां वैदिकानां। तु वस्तुतः संस्कृता या भाषा विद्यते इयं काचित् भाषा न अपितु भाषायाः परिष्कृतं सम्पादितं संस्कृतं रूपम् एकं विद्यते।
एवम्
तस्याः भाषायाः मानकीकरणं सम्यक्तया यत् एकं प्रतिमानम् अस्ति तत् पाणिनिना सम्पादितम् अस्ति स्वकीयायाम् अष्टाध्याय्याम्।
एवम्
ततः पूर्वमपि भाषायाः मानकीकरणस्य प्रयासाः सञ्जाताः अन्यैरपि वैयाकरणैः। परन्तु यदि वयं पश्यामः वैदिकव्याकरणं यदि एतेन रूपेण यदि वयं विचारयामः कि वैदिकं किमपि व्याकरणं भवति, यदि वैदिकाः शब्दाः भवन्ति चेत् वैदिकं व्याकरणमपि अस्ति।
एवम्
शब्दसंहितायाः रूपं सर्वप्रथमं वैदिकवाङ्मयात् वयं पश्यामः तत्र समुपलभ्यते। व्याकरणं तत्र वेदाङ्गत्वेन तत्र सुप्रथितं वर्तते।
एवम्
वैदिकवाङ्मये नैकानि प्रमाणानि सन्ति यत् येभ्यः एतस्य वैदिकवाङ्मयस्य व्याकरणमूलत्वं विपश्चितः अङ्गीकुर्वन्ति, विद्वांसः अङ्गीकुर्वन्ति। यदि वयं ब्राह्मणग्रन्थान् पश्यामः, मम बुद्धौ मनसि एकम् उदाहरणम् आयाति गोपथब्राह्मणस्य। तत्र प्रातिपदिक आख्यात लिङ्ग वचन विभक्ति प्रत्ययादीनां व्याकरणशास्त्रीयाणां पारिभाषिकशब्दानां बहुधा समुल्लेखः तत्र समवाप्यते।
एवम्
प्रातिशाख्यग्रन्थास्तु वैदिकव्याकरणग्रन्थरूपेण एव लोके सुप्रथिताः सन्ति। जनाः कथयन्ति प्रातिशाख्यम् इत्युक्ते वैदिकव्याकरणम्। यद्यपि प्रातिशाख्यग्रन्थं शाखानुसारम् अस्ति, तत्र बहवः विषयाः सन्ति, केचन विषयाः तत्र व्याकरणसम्बन्धाः सन्ति, सम्बद्धाः सन्ति, एतस्मात् जनाः एवं कथयन्ति।
एवम् अस्तु महोदय, भवद्भिः सम्यक् प्रतिपादितम्। ब्राह्मणग्रन्थानां प्रातिशाख्यानामपि अत्र उल्लेखः कृतः। महोदय, भवान् खलु भाषाशास्त्री, पुनः अहं तत्रैव आगच्छामि। संस्कृतवैयाकरणस्य साम्प्रतिके समये सर्वत्र भाषाविज्ञानस्य एव उद्घोषः दृश्यते, किन्तु विद्वद्भिः कथ्यते यत् वस्तुतः भाषाविज्ञानस्य उदयः संस्कृतव्याकरणस्य अध्ययनादेव जातः इति। अस्मिन् विषये किमस्ति तथ्यं, भवताम् अभिमतं च?
तथ्यम् इत्यस्मिन् विषये तु अहं न वक्तुं शक्नोमि, मम या मतिः वर्तते तदहं वदामि। वस्तुतः यदा भाषावैज्ञानिकाः, भाषाविज्ञानं नाम किमपि आधुनिकं चिन्तनम्, आधुनिकी परम्परा, परन्तु यदि अस्याः परम्परायाः मूलं यदि वयं कुत्रचित् अन्वेषणं कर्तुम् इच्छामश्चेत् निश्चयेन संस्कृतमेव अस्य मूलं भवितुमर्हति। पाणिनेः व्याकरणं भवतु, ततोऽपि पूर्वं याष्कस्य, आचार्ययाष्कस्य यत् निरुक्तशास्त्रं विद्यते, अहं मन्ये यत् भाषाविज्ञानस्य मूलं यदि कुत्रचित् अस्ति चेत् तद् निरुक्तम् अस्ति। वर्णागमो लोपविपर्ययश्च इत्यादि ये सिद्धान्ताः सन्ति, निरुक्तस्य निर्वचनसिद्धान्ताः, तत्र व्याकरणस्य यत् स्वरूपात्मकमेव तथ्यमस्ति केवलं, तस्य अवधारणं नास्ति। तो भाषा विज्ञानस्य मूलं यदि किमपि शास्त्रम् अस्ति चेत् निरुक्तम् अस्ति, और निरुक्ते वयं भाषा विज्ञानस्य ये सिद्धान्ताः आधुनिकाः सन्ति तेषां बहूनां वयं मूलं तत्र द्रष्टुं शक्नुमः। तु निश्चयेन भाषा विज्ञानस्य यदि वार्तां कुर्मश्चेत् संस्कृतं वयं द्रष्टुं शक्नुमः। वेदेषु अपि अस्य मूलम् अन्वेष्टुं शक्यन्ते एव, परन्तु तस्य कृते कश्चित् शोधः अपेक्षितः, इतोपि
आयासः अपेक्षते। अस्तु, सम्यक्। तर्हि निरुक्तं संस्कृतव्याकरणं च तत्र मूलत्वेन प्रतिपादयितुं शक्यमिति। अस्तु आचार्यवर, अन्तिमं तावत् अहम् अत्र प्रष्टुमेहे। सम्प्रति तु शासनमपि भारतीयभाषाणां, योगायुर्वेदानां च संवर्धने दत्तावधानं भाव्यते। नूतनशिक्षानीतिः तस्य प्रमाणमस्तीति वदन्ति विद्वांसः। अस्मिन् विषये संस्कृतसंवर्धनदिशा विश्वविद्यालयेषु, विद्यालयेषु कीदृशी वर्तते वस्तुस्थितिः, कृपया उद्यताम्।
सामयिकः प्रश्नः वर्तते, परन्तु केवलं सामयिकः न, सार्वकालिकः प्रश्नोऽयम्। संस्कृतसंवर्धनस्य यदि वयं वार्तां कुर्मः, तु संस्कृतस्य संवर्धनं यदि वयं कुर्वन्तः स्मः, तु एतत् संस्कृतस्य संवर्धनं नास्ति, देशस्य, राष्ट्रस्य, समाजस्य संवर्धनम् अस्ति। संस्कृतं यदि संवर्धितं भवति, वयं संवर्धिताः भवेम। तु यथा शासनस्य वार्ता अस्ति, तु एका मनोवैज्ञानिकी स्थितिः भारतस्य वर्तते, तस्याः स्थितेः यदि पालनं सर्वे कुर्वन्ति। पूर्वमहं गीतायाः एकं पद्यम् अत्र उदाहरणरूपेण प्रस्तौमि। गीतायां श्रीकृष्णः वदति, यद्यदा चरति श्रेष्ठः तत्तदेवेतरो जनः, स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते। वस्तुतः इयं भावना भारतस्य अन्तस्तत्त्वे रक्तरूपेण इयं भावना प्रवहति। यथा ज्येष्ठाः आचरन्ति, तथैव अत्र अनुजाः पश्चाद्वर्तिनः अपि आचरन्ति। तु यदि शासनं संस्कृतं स्वीकरोति चेत् जनाः अपि निश्चयेन स्वीकरिष्यन्ति, समाजः अपि निश्चयेन स्वीकरिष्यति, तेनैव देशस्य, राष्ट्रस्य कल्याणमपि सेत्स्यति, एवम् अहम् आशासे।
एवं भवद्भिः सम्यक् प्रतिपादितम्। महोदय, भवता सम्भाषणार्थं नैजः समयः कल्पितः, एतदर्थं भवते भूयांशो धन्यवादाः।
वस्तुतः धन्यवाद ज्ञापनं मम भवेत् भवते, आकाशवाणी दलाय, श्रोतृजनेभ्यः, सर्वेभ्यः मे शुभकामनाः सन्ति, मंगलकामनाः सन्ति। एवमेव संस्कृतवार्ताः सर्वत्र जनानां हृदि मनस्सु प्रसरेत, इयमेव भावनां कृत्वा सर्वेभ्यो नमस्करोमि।
धन्यवादः।
शोभना वार्ता विहिता, भवद्भ्यः धन्यवादाः। प्रियाः श्रोतारः, दर्शन शब्देन एतद् अभिज्ञायते यत् येन यथार्थ तत्त्वस्य अनुभूतिः भवति तद्दर्शनम्। अपि च दर्शनस्य कस्य, अस्मिन् प्रभागे तावत् संस्कृतजगता सम्बद्धैः बहुविध दिक्षुः प्रचल्यमाणानां वार्तानाम्। अस्तु, यथार्थवार्ताः उररीकृत्य अस्य प्रभागस्य अंशाः कथ्यन्ते अस्माकं सहयोगिना पुरुषोत्तम शर्मणा।
केन्द्रीय संस्कृत विश्वविद्यालयेन संस्कृत संवर्धन प्रतिष्ठानेन च नूतन संस्कृत शब्दावली निर्माणार्थं संस्कृतकोशा.in इत्याख्यः जालपुटः विनिर्मितः। अस्य विमोचन कार्यक्रमः भौमवासरे अभवत्। सर्वे संस्कृत विद्वांसः सहयोगाय पञ्जीकरणं विधातुम् आहूयन्ते। नेपालस्य राजधान्यां काठमाण्डुनगर्यां गतसप्ताहे त्रिदिवसीयं नेपाल भारतान्ताराष्ट्रियं संस्कृत सम्मेलनम् आयोजितम्, यत्र शताधिकाः विद्वांसः संस्कृतानुसन्धानं समेधितुं परिचर्चाम् अकुर्वन्।
बालाः बालवल्लरी प्रभागः सम्प्रति समागतः, यस्मिन् भवतां बुद्धेः विकासः नीतिगत शास्त्र सम्मित कथया प्रहेलिकया च भवति। अस्माकं सहयोगिनी साधना शर्मापि निरन्तरं एतदर्थं प्रयासरता भवति। अद्यापि सा बालकेभ्यः किं प्रवदति शृणुमस्तावत्।
बालः, अद्य अहम् एकां कवितां श्रावयामि। कवितायाः शीर्षकः अस्ति गज आयाहि रे। गज आयाहि, गज आयाहि, गज आयाहि रे। गज आयाहि, गज आयाहि, गज आयाहि रे। उदरं लम्बम् अस्ति, दन्तौ सितौ स्तः, शुण्डा दीर्घा अस्ति, कर्णौ विततौ स्तः। गज आयाहि, गज आयाहि, गज आयाहि रे। गज आयाहि, गज आयाहि, गज आयाहि रे। पुच्छं तुच्छं अस्ति, नेत्रे अल्पे स्तः, कायं भाण्डम् अस्ति, पादः स्तम्भः सन्ति। गज आयाहि, गज आयाहि, गज आयाहि रे। गज आयाहि, गज आयाहि, गज आयाहि रे।
प्रिय मित्राणि, भारत सर्वकारेण सरदार वल्लभ भाई पटेल वर्यस्य चत्वारिंशदधिकैकशततमे जयन्त्यवसरे उद्घोषितम् एकं भारतं श्रेष्ठ भारतम् इति कथनम्। एक भारत श्रेष्ठ भारत इत्येतस्य अनुभागस्य कार्यक्रमस्यान्तर्गतं राज्यानां केन्द्रशासित प्रदेशानां च जनानां मध्ये वार्ता विनिमयीकरणं पारस्परिक विचाराणाम् अवगमनं च निहितम् अस्तु। अस्माकं सहयोगिनी मुदिता वेतालः एनं प्रभागं कथं कथयति, आगच्छन्तु शृण्वन्तु।
प्रथमं वाक्यमस्ति, भारतस्य तिसृषु दिशासु समुद्रतटाः सन्ति। पहला वाक्य है, भारत के तीनों दिशाओं में समुद्र तट है। मारवाड़ी में भारत रह तीनों दिशामोय समुद्र तीर है। द्वितीयं वाक्यमस्ति, अस्मादेव कारणात् भारत देशः प्रायद्वीपः इति कथ्यते। दूसरा वाक्य है, इसी कारण भारत को प्रायद्वीप कहा जाता है। मारवाड़ी में इन कारण भारत ने प्रायद्वीप कहवे। तृतीयं वाक्यमस्ति, पूर्व दिशायां बंगोपसागरः, दक्षिण दिशायां हिंद महासागरः, पश्चिम दिशायां च अरब सागरः अस्ति। तीसरा वाक्य है, पूर्व दिशा में बंगाल की खाड़ी, दक्षिण में हिंद महासागर और पश्चिम में अरब सागर है। मारवाड़ी में पूरब दिशा मोय बंगाल की खाड़ी, दक्षिण मोय हिंद महासागर और पश्चिम मोय अरब सागर है। धन्यवाद।
वार्ता मध्ये कदा समयो व्यतीतः अभिज्ञातम् न। मित्राणि, कार्यक्रमस्य गुणवत्ता संवर्धने भवतां समेषां प्रतिपुष्टि प्रक्रिया अस्मान् सर्वदा प्रेरयन्ति, तथा च भवतां निज सन्देशाः कार्यक्रमं प्रति अस्मभ्यं प्रेरणादायकाः भवन्ति। भवन्तः सर्वे स्वीय सन्देशाः nsdsanskrit@gmail.com इत्यत्र प्रेषयित्वा अस्मान् अनुगृहीताः कुर्वन्तु। आगामि सप्ताहे पुनर्मिलामः। तावत्पर्यन्तं नमो नमः। जयतु संस्कृतम्, जयतु भारतम्।